आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अब्रवीत् यत् त्रिनिदाद टोबैगो देशयोः भारतीय समुदायस्य यात्रा साहसस्य विषयः अस्ति इति। अद्य प्रातः त्रिनिदाद टोबैगो देशयोः भारतीय समुदायस्य कार्यक्रमं सम्बोधयन् श्रीमोदी अवोचत् यत् तेषां पूर्वजाः आशायाः साकं कठोरतां सम्मुखीकृतवन्तः, हृदयेषु रामायणं च वहन्ति स्म इति। सः अवोचत् यत् ते न केवलं प्रवासिनः अपितु कालातीत संस्कृतेः दूताः च सन्ति इति।
The journey of the Indian community in Trinidad and Tobago is about courage. The circumstances your ancestors faced could have broken even the strongest spirits, but they faced hardship with hope. They met problems with persistence. They left the Ganga and Yamuna behind, but carried the Ramayana in their heart.
प्रधानमन्त्री नरेन्द्र मोदी पञ्च राष्ट्राणां यात्रायाः द्वितीये चरणे त्रिनिदाद टोबैगो देशं प्रति अगच्छत्। विमानस्थानकं प्राप्य प्रधानमन्त्रिणः त्रिनिदाद टोबैगो देशस्य प्रधानमन्त्रिणा कमला प्रसाद बिसेसर इत्यनया सह तस्याः मन्त्रिमण्डलस्य सदस्यैः अन्यैः महानुभावैः च विशेषरूपेण स्वागतं कृतम्। प्रधानमन्त्रिणम् औपचारिक रक्षक सम्मानं प्रदत्तम्। विशेष सांस्कृतिक प्रदर्शनेन च स्वागतम् अभवत्। एकस्मिन् जनसञ्चार माध्यमेन श्रीमोदी अवोचत् यत् भारतात् बहवः जनाः बहुभ्यः वर्षेभ्यः पूर्वं त्रिनिदाद टोबैगो देशं प्रति आगच्छन् इति। वर्षेषु ते अनेकेषु क्षेत्रेषु विशिष्टतां प्राप्तवन्तः, राष्ट्रस्य विकासयात्रां समृद्धं च कुर्वन्तः सन्ति। अवधेयास्पदं वर्तते यत् भारतीय प्रधानमन्त्रित्वेन त्रिनिदाद टोबैगो देशं प्रति प्रथमा यात्रा वर्तते। प्रधानमन्त्री श्रीनरेन्द्र मोदी घानादेशस्य संसदं सम्बोधयन् अवोचत् यत् घानादेशः लोकतन्त्रस्य भावनां विकीर्णां करोति, यत्र हि घानादेशे भवितुं सम्माननीयं, संसदं च सम्बोधयितुं सः अतीव गौरवम् अनुभवति। सः अवोचत् घानादेशः न केवलं तस्य मृत्तिकायां सुवर्णः अस्ति इति, सुवर्णभूमिः इति प्रसिद्धः, अपितु तस्य जनानां तेजसः बलस्य च कारणेन सः स्वर्णभूमिः कथ्यते। ततः पूर्वं प्रधानमन्त्री मोदी अथ घानादेशस्य राष्ट्रपतिः जॉन रमणी महामा च प्रतिनिधिमण्डलस्तरीय वार्तां कृतवन्तौ। ततः राष्ट्रद्वयं व्यापक सहयोगरूपेण स्वसम्बन्धस्य उन्नतीकरणाय सहमतम् अभवत्। वैश्विक दक्षिणेन सह भारतस्य सम्बन्धं सुदृढं कर्तुं स्वस्य पञ्चराष्ट्रयात्रायाः अग्रिमचरणे प्रधानमन्त्री नरेन्द्र मोदी राष्ट्रपतिना जेवियर मिले इत्यस्य आमन्त्रणेन अर्जेण्टीना देशं यास्यति। जुलाई मासस्य चतुः पञ्च दिनांकयोः आयोजितेषु कार्यक्रमेषु सप्तपञ्चाशत् वर्षाणामनन्तरं भारतीय प्रधानमन्त्रिणः अर्जेण्टीना देशस्य प्रथमा द्वैपाक्षिक यात्रा भविष्यति। दिल्ली सर्वकारेण CAQM इति वायुगुणवत्ता प्रबन्धन आयोगाय निवेदनं कृतं यत् देहल्यां वाहनानां कृते इन्धनस्य निराकरणानिवार्यता प्रवर्तनं भवेत्। देहल्याः पर्यावरण मन्त्री मंजिन्दर सिंह सिरसा वर्यः अस्मिन् विषये CAQM इत्यस्मै पत्रं लिखितवान् अस्ति। सूचना प्रसारण मन्त्रालयेन 2014-2020 वर्षे मूलतः निर्गमितानां दूरदर्शन मूल्यांकन संस्थानां नीति मार्गदर्शिकासु संशोधनानां प्रस्तावः कृतः। प्रस्तावित प्रारूपेण प्रसार माध्यमानां कृते कानिचन प्रतिबन्धनात्मक उपबन्धाः निरस्तीकृताः, येन आधुनिकीकरणं भवेत्। प्रस्तावित परिष्काराणाम् उद्देश्यं TRP व्यवस्थायां विविध विकासः भवेत् इति सुनिश्चेतुं वर्तते इति वार्ताः।